सर्वेषां संस्कृतकक्षायां स्वागतम्. प्रथमतया अहम् एकं श्लोकं श्रावयामि. उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः, न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः. इत्युक्ते उद्यमेन एव कार्याणि सिध्यन्ति, न तु मनोरथैः. अस्माकं जीवने अपि किमपि कार्यं साधयितुम् उद्यमः आवश्यकः एव. अस्मिन् श्लोके कविः वदति, सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति. तथा एव उद्यमं विना कार्यं साधयितुं न शक्यम्. यदि सिंहः खादितुमिच्छति तदा मृगाणाम् अन्वेषणं करोति, तेषां मारणार्थं बहु प्रयासं करोति. परन्तु विपरीतक्रमेण, इत्युक्ते तस्य विपरीतक्रमेण, कौण्टरि टु दाट्, मृगाः स्वेच्छया सिंहस्य मुखे न प्रविशन्ति. तथा एव वयमपि कार्यसाधनार्थं प्रयत्नं कुर्मः चेदेव कार्यं सिद्ध्यति, नो चेत् न सिद्ध्यति. इत्युक्ते केवलं मनोरथः न पर्याप्तम्. अधुना वयं सर्वे अपि मिलित्वा संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. भवन्तः श्रुतवन्तः एव, संस्कृतभारत्याः एका घोषणा अस्ति, जयतु संस्कृतं जयतु मनुकुलम्. अतः वयं सर्वे मिलित्वा अधुना वयं पुनः एकवारम् अत्र मिलित्वा संस्कृतपठनार्थं किञ्चित् प्रयत्नं कुर्मः. अनन्तरं गते सप्ताहे वयं लट्लकारे अपि च लोट्लकारे कानिचन वाक्यानि रचितवन्तः. अस्माकं पुरतः, इत्युक्ते गते सप्ताहे अहं संस्कृतभारत्याः भारत्या निर्मितम् एकं करपत्रं प्रेषितवती. अहं चिन्तयामि भवन्तः सर्वे करपत्रं पुरतः स्थापयन्तु. गते सप्ताहे वयं तत् करपत्रं दृष्ट्वा कानिचन वाक्यानि, लघुवाक्यानि रचितवन्तः. तथा गते सप्ताहे किञ्चित् अभ्यासः अभवत्. अधुना अपि वयम् अद्य अपि इतोपि अधिकं तस्मिन्नेव विषये अभ्यासं कुर्मः. अतः सर्वे संस्कृतभारत्याः करपत्रं पुरतः स्थापयन्तु, किञ्चित् अभ्यासं कुर्मः अधुना. अत्र भूमा भगिनी, भवत्याः पार्श्वे करपत्रमस्ति वा?
नै बहिनि, क्षमस्व.
नास्ति वा? अस्तु भगिनि, चिन्ता मास्तु. रघुपतिमहोदय, भवतः पार्श्वे अस्ति वा
पुस्तकचित्र?
आं भगिनि, अस्ति अस्ति,
करपत्रमस्ति चेत्. तत्तु संस्कृतभारत्या निर्मितं करपत्रं. तस्मिन् करपत्रे आहत्य कति पदानि सन्ति?
आहत्य त्रिंशत् पदानि सन्ति.
आहत्य इत्युक्ते किं जानाति वा?
इन् टोटल्.
उत्तमम्. आहत्य षट्त्रिंशत्.
पुनः वदतु, आहत्यार्थं किं
वदतु महोदय?
इन् टोटल्. इन् टोटल्.
टोटल्
आहत्य, आहत्य षट्त्रिंशत् पदानि, क्रियापदानि सन्ति. तेषु पञ्चदशक्रियापदानि उपयुज्य वयं सर्वे गते सप्ताहे अभ्यासं कृतवन्तः. अद्य तत्र इतोपि अवशिष्टानि पदानि सन्ति. इत्युक्ते इतोपि अवशिष्टानि कति सन्ति महोदय तस्मिन् करपत्रे?
अवशिष्टानि 16 प्लस् 6 22 द्वाविंशति.
उत्तमं. द्वाविंशतिः, क्रियापदानि, क्रियापदानि सन्ति अत्र. अवशिष्टानि इत्युक्ते भवन्तः जानन्ति वा अवशिष्टानि?
रिमेनिङ्ग् अवशिष्टानि.
उत्तमम् उत्तमम् अवशिष्टानि द्वाविंशतिः क्रियापदानि सन्ति. अधुना वयं करपत्रं दृष्ट्वा अभ्यासं कुर्मः. भवान् एव करोतु महोदय. प्रथमं क्रियापदं किं तस्मिन् करपत्रे? द्वितीयं करपत्रं
करोति.
करोति इति पदं करोति इति पदं स्वीकृत्य कानिचन वाक्यानि रचयतु. लघु लघु वाक्यानि. लघु वदतु महोदय.
करोति, सः कार्यं करोति. कुम्भकरः घटं करोति.
अहं किमिच्छामि चेत् तत्र इदानीं पर्यन्तं वयं कानिचन सर्वनामपदानि सर्वनामपदानि जानीमः. सर्वनामपदानि उपयुज्य प्रथमं लघुवाक्यं रचयतु, अनन्तरं नामपदम् अपि च कर्मपदमपि उपयुज्य वाक्यरचनं कुर्मः. प्रथमतया लघुवाक्यं रचयतु, केवलं पदद्वयं, कर्तृपदं क्रियापदं पर्याप्तम्.
एषः करोति, सः करोति, सा करोति, तत् करोति सम्यक् वा? तत् करोति,
तत् करोति अपि सम्यक्.
ओके ओके, तत् करोति, तत् करोति, ते कुर्वन्ति, ताः कुर्वन्ति, तानि कुर्वन्ति.
उत्तमम्. इदानीं पर्यन्तं भवान् एकवचने अपि च बहुवचने अपि वाक्यानि रचितवान्. अधुना वयं भवान् अहं चिन्तयामि भवान् जानाति एव वाक्ये यत् पदं कर्तारं सूचयति तदेव कर्तृपदं. वाक्ये यत् पदं क्रियां सूचयति तत् क्रियापदम्. अधुना वयं कानिचन कर्मपदानि अपि योजयित्वा वाक्यरचनां कुर्मः. अहं पदं ददामि, भवान् वाक्यं रचयतु. पूजा किमर्थं चेत् अहं वदामि, करोति इति क्रियापदम् अहं चिन्तयामि एकं महत्त्वपूर्णं क्रियापदं. करोति इति पदस्य विषये वयं किञ्चित् अधिकं ज्ञास्यामः अद्य. अतः पूजा इति पदं स्वीकृत्य, पूजा इति कर्मपदम्.
नमस्ते भगिनि. रामः पूजां करोति.
उत्तमम्. अर्चकः पूजा
अर्चकः पूजां करोति.
भिक्षुकः याचना
याचनां करोति.
यात्रिकः प्रतीक्षा
प्रतीक्षां करोति.
भक्तः उपासना
उपासनां करोति.
अलसः निद्रा
निद्रां करोति.
अलसः इत्युक्ते कः?
लेजि पर्सन्.
अलसः इत्युक्ते लेजि पर्सन्. देवः कृपा
कृपां करोति.
सम्यक्. सज्जनः दया
सज्जनः दयां करोति.
समाजसेविका सेवा
सेवां करोति.
भक्तः पूजा
पूजां करोति.
अहं कार्यम्
करोमि.
वयं कार्यं
कुर्मः. ओके.
इदानीं पर्यन्तं वयं जानीमः प्रथमाविभक्तौ कर्तृपदस्य पदस्य रूपं भिन्नं भवति, अनन्तरं द्वितीयाविभक्तौ रूपं भिन्नं भवति इति वयं जानीमः. इदानीं पर्यन्तं भवान् एकं कर्मपदम् उपयुज्य वाक्यं तर्जितवान्। अहम् एकम् अन्यं नूतनं विषयं वक्तुमिच्छामि अत्र। भवान् यत् पठितवान् तत् अन्यरूपेण अपि पठितुं शक्यम्। इत्युक्ते अहं पठामि इति सम्यक्, अहं पुस्तकं पठामि इति सम्यक्, अहं पुस्तकस्य पठनं करोमि तदपि समीचीनम्। अत्र पुस्तकस्य पठनं करोमि, अत्र तथा एव अहं गीतं शृणोमि इति एकरीत्या सम्यक्। अन्यत् रूपेण, विकल्पेन, आल्टर्नेटिव्लि वी केन् से द सेम् थिङ्ग् इन् ए डिफ़्रेण्ट् वे। अहं गीतस्य श्रवणं करोमि तथापि वयं वक्तुं शक्नुमः। भवान् तथापि करोति वा महोदय? कृत्वा दर्शयतु अत्र। अत्र अर्चकः पूजा न पूजा परन्तु अत्र बालकः पुस्तकं पठति करोतु।
बालकः पुस्तकस्य पठनं करोति। पुस्तकस्य पठनं
अहं वदामि, भक्तः देवम् अर्चति।
भक्तः देवस्य अर्चनं करोति।
उत्तमं। गायकः गानं करोति।
गायकः
गीतं गायति।
गायकः गीतायाः गायनं करोति।
अत्र गीता अहम् उक्तवती, गीतं नपुंसकलिङ्गपदं,
गीतस्य गायनं करोति।
उत्तमं। बालकः भोजनं खादति।
भोजनस्य खादनं करोति।
उत्तमम्। अनन्तरं जननी अन्नं पचति।
जननी अन्नस्य पचनं करोति।
उत्तमम्। अनन्तरं वृद्धा बालकं पश्यति इति अस्ति। बालकं पश्यति,
बालकं पश्यति, बालकं पश्यति, पश्यति इति पश्
दर्शनं।
ओके। बालकः वृद्धस्य दर्शनं करोति।
इत्युक्ते वृद्धा बालकस्य दर्शनं करोति।
वृद्धा बालकस्य दर्शनं करोति।
उत्तमम्। इत्युक्ते विकल्पेन अपि वक्तुं शक्नुमः, इत्युक्ते वाक्यद्वयमपि समानमेव, तस्य अर्थः समानः। अत्र अनन्तरम् अहम् अत्र एकं वक्तुमिच्छामि। इदानीं पर्यन्तं वयं कर्मपदं योजयित्वा वाक्यरचनां कृतवन्तः। कर्मपदम् इत्युक्ते क्रियायाः फलम्। यदि वयं किमपि कापि क्रियां कुर्मः चेत् तत्र क्रियायाः फलम् एव कर्म। यदि वयं कार्यं कुर्मः चेत् तस्य फलं किम् इति चिन्तयामः चेत् फलम् एव क्रियायाः फलम् एव कर्म इत्युक्ते फलम् एव तस्य कार्यस्य सार्थकता इत्युक्ते यदि वयं सस्यम् आरोपयामः चेत् तस्मात् वयं किं प्राप्तुम् इच्छामः साधारणतया वयं फलम् इच्छामः क्रियायाः फलम् एव कर्म अनन्तरं तदर्थमेव क्रियायाः फलमेव कर्म अनन्तरं साधारणतया कर्तृपदं प्रथमाविभक्तौ भवति कर्ता आवश्यकः किमपि कर्तुम् अनन्तरं कर्मपदं क्रियायाः फलं तदर्थमेव कर्मपदं सर्वदा द्वितीया विभक्तौ भवति अत्र एकम् अहं सूक्तिं वक्तुमिच्छामि फलम् इत्युक्ते किमर्थं फलम् आवश्यकम् इत्युक्ते अत्र एका सूक्तिः अस्ति प्रयोजनम् अनुद्दिश्य मन्दोपि न प्रवर्तते इत्युक्ते प्रयोजनं विना कोऽपि मन्दः अपि कार्यं न करोति तथा अत्र वयं कानिचन कर्मपदानि अपि उपयुज्य वाक्यरचनां कृतवन्तः अनन्तरं करोति इति पदम् उपयुज्य अत्र कानिचन वाक्यानि रचितवन्तः प्रथमतया कर्मपदम् उपयुज्य अनन्तरं श्रवणं पठनं मननं गमनम् एतानि पदानि भाववाचकपदानि इति वदामः भाववाचकपदानि अपि उपयुज्य वाक्यरचनां कर्तुं शक्नुमः अत्र यदि वयं भाववाचकपदम् उपयुज्य वाक्यरचनां कुर्मः चेत् तत्र कर्मपदं सर्वदा षष्टिविभक्तौ भवति यथा पुस्तकस्य पठनं करोमि गीतस्य श्रवणं करोमि तथा भवति उत्तमं महोदय अनन्तरं अत्र सुचित्रा भगिनी भवती करोति वा शृणोति इति क्रियापदं स्वीकृत्य कानिचन वाक्यानि रचयतु
आं भगिनि शृणोति भगिनि
शृणोति
ओके सः शृणोति सः गीतं शृणोति अहं गीतं शृणोमि वयं गीतं शृणुमः
वयं गीतं शृणुमः
सा पाठं शृणोति
अत्र अहं कानिचन पदानि ददामि भवती वाक्यं रचयतु अत्र बालकः वार्ता
ओके बालकः वार्ता वार्तां शृणोति बालकः वार्तस्य
त्यजतु भगिनि ल्यूट् उपयुज्य वाक्यरचनं तत् त्यजतु केवलं कर्मपदम् उपयुज्य लघुवाक्यं रचयतु सरलवाक्यं बालकः
ऐ फोगट् द वर्ड् यु सेड् भगिनि
वार्ता
बालकः वार्तां शृणोति
बालिका विषयः
ओके बालिका विषयहं शृणोति
उत्तमं बालिका विषयं शृणोति अनन्तरं वृद्धः श्लोकः
वृद्धः श्लोकां शृणोति
श्लोकं शृणोति
श्लोकम् ओके श्लोकः ओके ओके इट्स् नाट् श्लोक ओके
यदि श्लोकः अस्ति इत्यस्मिन् वाक्ये श्लोकः प्रथमाविभक्तौ अस्ति. श्लोकः इति पदं प्रथमाविभक्तौ अस्ति. श्लोकः अस्ति, परन्तु अहं श्लोकं पठामि तस्मिन् वाक्ये श्लोकः इति पदं द्वितीयाविभक्तौ अस्ति. अतः अहं श्लोकं पठामि, अहं श्लोकं शृणोमि इति समीचीनम्. अनन्तरं रामः प्रवचनम्.
ओके, रामः प्रवचनं शृणोति.
उत्तमं. गीता भाषणं.
गीता भाषणं शृणोति.
उत्तमं. बालिका निन्दनं.
बालिका निन्दनं शृणोति.
उत्तमम्. अहम् आकाशवाणी.
अहम् आकाशवाणीं शृणोति.
पुनः करोतु.
अहं
समीकरोतु.
अहम् आकाशवाण्यां करोति.
किञ्चित् समीकरोतु. किञ्चित् अहम् उत्तमपुरुष.
ओके 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 ओके. अहम् आकाशवाणीं शृणोमि.
उत्तमम् उत्तमम्. अनन्तरं बालिका सङ्गीतम्.
बालिका सङ्गीतं शृणोति.
वयं रामायणप्रवचनं.
वयं रामायणप्रवचनं शृणोमः.
उत्तमं. शृणुमः. अनन्तरं गायकः ध्वनिः.
गायकः ध्वनिहं शृणोति.
किञ्चित् समीकरोतु भगिनी. गायकः
गायकः गायकः वाट् इस् द वर्ड् भगिनी ऐ फॉरगॉट.
ध्वनिः ध्वनिः
ध्वनिः ध्वनिः ध्वनिः. गायकः ध्वनिह्यां शृणोति.
अत्र पश्यतु भगिनि, ध्वनिः प्रथमाविभक्तौ, ध्वनिं शृणोति. उत्तमम्. शिशुः माता रोदनं.
शिशुः माता
नो नो न भगिनि न भगिनि, केवलं माता रोदनं.
ओ माता रोदनं. ओके, माता रोदनं शृणोति.
उत्तमं. वृद्धः कोलाहलः.
वृद्धः कोलाहलं शृणोति.
पुनः करोतु.
कोलाहलं शृणोति.
उत्तमं. कोलाहलः इत्युक्ते किं?
डिस्टर्बेन्स्,
नोइस्.
उत्तमम्. अनन्तरम् अहं खेयास्. उत्तमं. अहं संस्कृतपाठः.
अहं संस्कृतपाठं शृणोमि.
शृणोमि. उत्तमम्. अनन्तरं वृद्धः भाषणं.
वृद्धः भाषणं शृणोति.
उत्तमं. तथा एव इदानीं पर्यन्तं भवती एकं कर्मपदमपि योजयित्वा वाक्यं रचितवती. उत्तमं भगिनि, धन्यवादः.
धन्यवादः.
अनन्तरं भूमा भगिनी भवती करोति वा?
आं भगिनि.
अग्रिमं क्रियापदं किं?
ददाति.
ददाति. करोतु भगिनि.
रामः धनं ददाति. अहं भोजनं ददामि.
उत्तमम्. अन्यानि वाक्यानि रचयतु.
वृद्धः पत्रिकां ददाति.
अहं पदं ददामि, भवती केवलं वाक्यरचनां करोतु. वृद्धः फलं.
वृद्धः फलं ददाति. अहं फलं ददामि.
उत्तमं. बालिका पुष्पं.
बालिका पुष्पं ददाति.
उत्तमं. रामः माता वस्त्रं.
माता वस्त्रं ददाति.
धनिकः कण्ठहारं.
धनिकः कण्ठहारं ददाति.
उत्तमं. निर्धनः पात्रं.
निर्धनः पात्रं ददाति.
माता भिक्षा.
माता भिक्षां ददाति.
अहं धनम्.
अहं धनं ददामि.
उत्तमम्. अध्यापकः सुधाखण्डः.
अध्यापकः सुधाखण्डं ददाति. सुधाखण्डः केण्डि केण्डि
चाक्
चाक् ओ
पीस् आफ् चाक् सुधाखण्ड. पुनः वदतु भगिनि तदेव वाक्यम्.
अध्यापकः सुधाखण्डं ददाति.
उत्तमम्. माता भोजनं.
माता भोजनं ददाति.
उत्तमं. बालिका अङ्कनी.
बालिका अङ्कनी ददाति.
आपणिकः शाटिका.
आपणिकः शाटिकां ददाति.
देवः वरम्.
देवः वरं ददाति.
उत्तमम्. अनन्तरं अत्र तावदेव भगिनि. धन्यवादः. ददाति. अनन्तरं कः करोति? शोभा भगिनी भवती करोति वा? आं भगिनि करोति.
अनन्तरं प्रेषयति शब्दमस्ति. प्रेषयति सेन्स्. माता भोजनं प्रेषयति. सः प्रेषयति. एतत् प्रेषयति. अहं पुष्पाणि प्रेषयति. अहं पुष्पाणि प्रेषयामि. प्रेषयति बालकः.
अहं कानिचन पदानि ददामि, भवती वाक्यं रचयतु. अत्र माता आभरणं.
माता आभरणं प्रेषयति.
धनिकः कण्ठहारं.
धनिकः कण्ठहारं प्रेषयति.
उत्तमं. महिला मधुरं.
महिला मधुरं प्रेषयति.
अहं मिष्टान्नम्.
अहं मिष्टान्नं प्रेषयामि.
उत्तमं. वैद्यः औषधं.
वैद्यः औषधं प्रेषयति.
उत्तमम्. आपणिकः शाटिका.
आपणिकः शाटिका प्रेषयति.
उत्तमम्. अहं धनम्.
अहं धनं प्रेषयामि.
उत्तमम्. अनन्तरं वृद्धः ग्रन्थः.
वृद्धः ग्रन्थं प्रेषयति.
उत्तमं भगिनि. उत्तमं. तदेव. धन्यवादः.
धन्यवादः.
विलम्बेन केनापि आगतं वा? विलम्बेन के आगतवन्तः?
नमस्ते भगिनि, अहं वंशी सुधा अस्मि. अत्र भगिनि भगिनि किञ्चित् किञ्चित् त्रासः अस्ति. इदानीमेव वक्तुं न शक्नोमि.
अस्तु भगिनि, अस्तु.
केवलं शृणोमि.
नमस्ते भगिनि. गीता.
अस्तु अस्तु भगिनि. अनन्तरं कः करोति? सतीश् महोदय, भवान् करोति वा?
लक्ष्मी भगिनी सङ्कलनं.
स्वागतं महोदय. सतीश् महोदय, भवान् करोति वा? अनन्तरं किं क्रियापदमस्ति? अत्र प्रक्षालयति इति पदमस्ति. प्रक्षालयति. प्रक्षालयति इति पदम् उपयुज्य कानिचन वाक्यानि रचयामः अधुना. करोति वा महोदय? सतीश् महोदय, न श्रूयते.
सः वस्त्राणि प्रक्षालयति. अहं वस्त्राणि प्रक्षालयामि. अहं वस्त्राणि प्रक्षालयामि. अनन्तरं त्वं वस्त्राणि प्रक्षालयसि.
अहं पदं ददामि, भवान् वाक्यं रचयतु. अत्र महिलापात्राणि,
महिलापात्राणि प्रक्षालयति.
उत्तमं. बालिकागृहं,
बालिकागृहं प्रक्षालयति.
उत्तमं. वृद्धः देवालयः,
वृद्धः देवालयं प्रक्षालयति.
उत्तमं. बालिका विद्यालयः,
बालिका विद्यालयः, विद्यालयं प्रक्षालयति.
उत्तमं. बालकः चषकः,
बालकः चषकं प्रक्षालयति.
महिला चमसः,
महिला चमसं प्रक्षालयति.
माता दर्वी,
माता दर्वीं प्रक्षालयति.
उत्तमं महोदय, धन्यवादः. उत्तमम्. अनन्तरं गीता भगिनी भवती करोति वा?
आम्, नमस्ते भगिनि.
अत्र गीता भगिनी अस्ति, अपि च आशाचारी इति अन्यनाम अस्ति अत्र. आशाचारी इति दृश्यते, अतः आशाचारी भूमा भगिनी एव. अस्तु भगिनि. गीता भगिनी भवती करोति वा?
सः उत्तिष्ठति, सा उत्तिष्ठति, अहम् उत्तिष्ठामि, वयम् उत्तिष्ठामः.
वयम् उत्तिष्ठामः, तथा एव अत्र भवती जानाति एव सर्वनामपदानि उपयुज्य एषः उत्तिष्ठति, एषा उत्तिष्ठति, तथा
वयं एषः उत्तिष्ठति, एषा उत्तिष्ठति, एतत् उत्तिष्ठति, भवान् उत्तिष्ठति, भवती उत्तिष्ठति,
भवती उत्तिष्ठति. उत्तिष्ठति इति पदस्य लोट् लकाररूपं वदतु भगिनि.
उत्तिष्ठतु, भवान् उत्तिष्ठतु.
उत्तमम्. उत्तिष्ठतु, उत्तिष्ठति इति पदं लट् लकारे अस्ति, उत्तिष्ठतु लोट् लकारे अस्ति. उत्तिष्ठतु इति पदस्य बहुवचनरूपम् उत्तिष्ठन्तु. यदि वयं पूजां कुर्मः तदा वयम् एतदेव वाक्यं वदामः, उत्तिष्ठन्तु भूतपिशाचाः इति वदामः. यदि भवन्तः श्रुतवन्तः चेत् देवालये उत्तिष्ठन्तु भूतपिशाचाः, एते भूमिभारकाः उत्तिष्ठन्तु इति वदामः. एते भूमिभारकाः उत्तिष्ठन्तु. अत्र उत्तिष्ठन्तु इति पदं उत्तमं भगिनि. उत्तिष्ठ, तत्र उत्तिष्ठ इति पदं मध्यमपुरुष एकवचने,
एकवचनं
उत्तिष्ठ, उत्तिष्ठोत्तिष्ठ गोविन्द, तत्र द्विवारम् आगच्छति एकमेव पदम्. उत्तिष्ठ, उत्तिष्ठ गोविन्द,
सन्धिविषयम् अस्ति.
उत्तमं भगिनि. परन्तु अत्र उत्तिष्ठति, अत्र उत् उपसर्गपूर्वकः स्था धातुः इति वदामः. अत्र उत् उपसर्गपूर्वकः स्था धातुः, तथा एव उत्तिष्ठति इति रूपम् आगच्छति. परन्तु अत्र एतत् अकर्मकक्रियापदम् इत्युक्ते कर्मपदं न स्वीकरोति. अतः केवलं बालिका उत्तिष्ठति, बालकः उत्तिष्ठति इति एव वयं वक्तुं शक्नुमः. परन्तु अत्र किम् उत्तिष्ठति इति न प्रश्नः न उदेति, केवलं कुत्र उत्तिष्ठति इति एव वयं प्रष्टुं शक्नुमः. वि केन् ओन्ली आस्क् कुत्र उत्तिष्ठति. सप्तमी विभक्तौ तस्य उत्तरं भवति साधारणतया. उत्तिष्ठति इति क्रियापदम् अकर्मकक्रियापदम्. अनन्तरं वाक्यम् अस्ति स्थापयति, तदपि भवती एव करोतु.
स्थापयति सः स्थापयति, सा स्थापयति, एषः स्थापयति, एषा स्थापयति, एतत् स्थापयति, भवान् स्थापयति, भवती स्थापयति, अहं स्थापयामि, वयं स्थापयामः.
उत्तमं. किं स्थापयति अधुना वयं किञ्चित् पश्यामः. किं स्थापयति अत्र बालकः पुस्तकं वदतु.
बालकः पुस्तकं स्थापयति.
महिला आभरणं,
महिला आभरणं स्थापयति.
माता आहारं,
माता आहारं स्थापयति.
अहं धनम्,
अहं धनं स्थापयति स्थापयामि.
अहं धनं स्थापयामि. आपणिकः शाटिका,
आपणिकः शाटिकां स्थापयति.
उत्तमम्, उत्तमं, तावदेव. अनन्तरं धन्यवादः भगिनी. अनन्तरं
धन्यवादः
गीता भगिनी. अनन्तरं रघुपति आचार्यमहोदय भवान् करोति वा?
नो
चेत् अत्र
भगिनि.
अनन्तरं किम् अस्ति अत्र?
स्मरति, स्मरति, सः स्मरति, एषः स्मरति, अहं स्मरामि, वयं स्मरामः, त्वं स्मरसि, यूयं स्मरथ, ते स्मरन्ति.
उत्तमम्, उत्तमं, तदेव. अनन्तरं कानिचन वाक्यानि, अन्यानि वाक्यानि अपि भवान् एव रचयतु. बालकः श्लोकः,
बालकः श्लोकं स्मरति.
बालिका कविता,
बालिका कवितां स्मरति.
रामः स्तोत्रम्,
रामः स्तोत्रं स्मरति.
अनन्तरं लता मार्गः,
लता मार्गं स्मरति.
उत्तमम्. अध्यापकः सूचना,
अध्यापकः सूचनां स्मरति.
उत्तमम्. अहं काव्यं
स्मरामि, अहं काव्यं स्मरामि.
अहं कार्यं स्मरामि.
काव्यं कार्यं,
काव्यं नपुंसकलिङ्गपदं, काव्यं काव्यानि. उत्तमं महोदय. अनन्तरम् अन्यं क्रियापदं किमस्ति? इदानीं पर्यन्तं आगच्छति, इदानीं पर्यन्तं यस्य कस्यापि क्रमः न आगतः वा किञ्चित् वदतु. शङ्करन् महोदय भवान् करोति वा? धन्यवादः महोदय. करोतु महोदय.
क्रियापदं किं, किं क्रियापदं भगिनि?
आगच्छति, आगच्छति
भगिनि. उपविशति वा? नाट् गिवन्, डन्.
उपविशति अपि करोतु महोदय. उपविशति करोतु.
उपविशति, उपविशति, एतत् उपविशति, भवान् उपविशति, अहम् उपविशामि, वयम् उपविशामः. अनन्तरं त्वम् उपविशति, यूयम् उपविशतः उपविशत
उत्तमम् उत्तमं तावदेव. अनन्तरम् अहं कानिचन पदानि ददामि, भवान् करोतु. बालकः बालकः
बालकः आसनं उपविश
पुनः करोतु महोदय. बालकः
आसनम् उपविशति.
अत्र पश्यतु, बालकः आसने उपविशति. किमर्थं चेत् अत्र उपविशति इति क्रियापदम् अकर्मकक्रियापदम्. यदि वयम् उपविशति इति वदामश्चेत् बालकः उपविशति, बालिका उपविशति, तत्र प्रश्नः किं भवति, किम् उपविशति इति न वदामः, कुत्र उपविशति इति एव तस्य उत्तरं भवति. बालकः उपविशति परन्तु कुत्र उपविशति इति प्रश्ने सति तस्य उत्तरं किं भवति, बालकः आसन्दे उपविशति, आसने उपविशति. उत्तमम्. अध्यापकः उपविशति. वृद्धः
जननी उपविशति.
यात्रिकः
उपविशति.
धनिकः
उपविशति.
उत्तमं. किमर्थम् अधुना अहं केवलम् एकमेव पदं दत्तवती, किमर्थं तथा इत्युक्ते अत्र क्रियापदं कर्मपदं न स्वीकरोति. इत्युक्ते अत्र उपविशति इति पदम् अकर्मकक्रियापदम्, अतः कर्मपदं न स्वीकरोति. यदि भवान् वक्तुमिच्छति चेत् धनिकः आसन्दे उपविशति, अथवा आसने उपविशति, अथवा बालकः भूमौ उपविशति, अथवा बालिका कटे, कटः इत्युक्ते मेट् उपविशति, तथा एव वक्तुं शक्नुमः. परन्तु तत्र किम् उपविशति इति प्रश्नः न उदेति. भवान् एव अन्यानि क्रियापदानि अपि कानिचन क्रियापदानि करोतु महोदय. अनन्तरं किमस्ति अत्र, आगच्छति
आगच्छति अस्ति. रामः आगच्छति. सीता आगच्छति. सः आगच्छति. सा आगच्छति. एषः आगच्छति. एषा आगच्छति. सः आगच्छति. अहम् आगच्छामि.
उत्तमं.
वयम्
उत्तमम्
आगच्छामः.
अनन्तरं अत्र अहं कानिचन पदानि ददामि. अध्यापकः आगच्छति. परन्तु अत्र यदि आगच्छति इति पदम् उपयुज्य वाक्यरचनं कुर्मः चेत् तत्र प्रश्नवाचकपदं किं भवति, वाक्यं किं भवति चेत् तत्र कुतः आगच्छति. अध्यापकः आगच्छति, परन्तु अध्यापकः कुतः आगच्छति. कुतः आगच्छति चेत् अध्यापकः विद्यालयतः आगच्छति इति वदामः. भवान् एव करोतु तथा. अत्र महिला कार्यालयः.
महिला कार्यालये आगच्छति.
किञ्चित् समीकरोतु महोदय.
महिला
किञ्चित्
कार्यालयम् आगच्छति.
अत्र महिला कार्यालयतः आगच्छति.
कार्यालयतः
वृद्धः आगच्छति. वृद्धः देवालयः.
वृद्धः देवालयः सः आगच्छति.
वृद्धः देवालयतः आगच्छति.
आगच्छति.
उत्तमम्. अहं ग्रन्थालयः.
अहं ग्रन्थालयतः आगच्छामि.
उत्तमम्. पुत्री वसतिमन्दिरम्.
पुत्री वसतिमन्दिरतः आगच्छति.
पुत्री वसतिमन्दिरतः आगच्छति. उत्तमम्. अनन्तरं गायकः प्रदर्शिनी.
गायकः प्रदर्शिनीतः आगच्छति.
गायकः प्रदर्शिनीतः आगच्छति. अनन्तरं अहं चित्रमन्दिरम्.
अहं चित्रमन्दिरतः आगच्छामि.
अहं चित्रमन्दिरतः आगच्छामि.
आगच्छामि.
अनन्तरं जननी उद्यानम्.
जननी उद्यानतः आगच्छति.
उद्यानतः आगच्छति.
आगच्छति.
उत्तमम्. उत्तमम्. अनन्तरम् अस्ति इति पदं स्वीकृत्य वदतु महोदय, कानिचन वाक्यानि.
अवश्यं भगिनि.
अस्ति. अनन्तरम् अस्ति इति क्रियापदमस्ति. षड्विंशतिः. षड्विंशतिः
भगिनि, एक सन्देहः अस्ति.
वदतु महोदय.
अत्र तः पञ्चमी विभक्ति अस्ति. आत् प्रत्यय सम्यक् नास्ति वा? यदि वयं वदामः चेत् सर्पः बिलात् आगच्छति. सर्पः तः बिलतः आगच्छति समीचीनं वा? गृहात् आगच्छति. गृहतः गृहात् द्वयपि
समीचीनमेव. तदपि समानार्थिकपदमेव. तसिल् तसिल् प्रयोगः इति वदामः. गृहतः नो चेत् गृहात्. तसिल् प्रयोगः. अत्र गृहतः गृहात् अर्थः समानः. वदतु महोदय.
गृहतः अथवा गृहतः एव एकमेव अर्थं वा भगिनि?
अर्थः समानः. समानं. अर्थं समानं.
यदि वयं
अस्ति अहं पठामि.
करोतु महोदय. अस्ति क्रियापदम्. अस्ति क्रियापदं स्वीकृत्य वदतु
भगिनि. प्रयोगः नाम किञ्चित् वदति मम भगिनि. नाम किं? तस्सिल्.
तस्सिल् तस्सिल् प्रयोगः इति वदामः. अत्र गृहतः गृहात् अर्थः समानः एव. तत्र भेदः नास्ति.
तस्सिल् प्रयोगः नाम भगिनि. धन्यवादः
भगिनि. वाट् इस् द वर्ड् यु आर् सेयिङ्ग्? तस्सिल्.
त्यजतु भगिनि, केवलं तत्तु पारिभाषिकपदं, टेक्निकल् टर्म्. अनन्तरम् अस्ति. अस्ति इति क्रियापदम् उपयुज्य वदतु महोदय, शङ्करन् महोदय.
अत्र सर्पः अस्ति.
पुस्तकं. ग्रन्थः.
ग्रन्थः अस्ति. माला.
दण्डः.
दण्डः. दण्डम् अस्ति.
दण्डः.
दण्डः अस्ति. संहितं. दण्डः अस्ति.
बालकः.
बालकः अस्ति, बालिका अस्ति, महिला अस्ति.
उत्तमम्. अत्र अत्रापि अस्ति अस्ति इति क्रियापदं कर्मपदं न स्वीकरोति. किमर्थं चेत् अस्ति इति पदम् अकर्मकक्रियापदम्, अतः केवलं पुस्तकमस्ति, महिला अस्ति इति एव वयं वक्तुं शक्नुमः. तत्र किम् इति प्रश्नः एव न उदेति. किं तत्र केवलं पुस्तकम् अस्ति तावदेव, तत्र क्रियापदं तस्य उपयोगः न भवति, क्रियापदस्य उपयोगं न कुर्मः. अत्र अस्ति इति क्रियापदम् अस्ति इति क्रियापदम् अकर्मकक्रियापदम्. अनन्तरं अस्ति इति पदस्य लोट् लकाररूपम् इत्युक्ते लट् रूपम् अस्ति, लोट् रूपं, लोट् इत्युक्ते आज्ञार्थे वा प्रार्थनार्थे वा वयं तस्य उपयोगं कुर्मः. अहं चिन्तयामि भवान् जानाति एव, वयं गते सप्ताहे एव वयं कृतवन्तः. गच्छति पदस्य लोट् लक गच्छति पदस्य लोट् लकाररूपं गच्छतु, आगच्छति इत्यस्य रूपम् आगच्छति, आगच्छतु. उत्तमम्. अनन्तरम् अस्ति पदस्य लोट् रूपं किम्?
अस्तु.
अस्तु
पुनः वदतु.
अस्तु अस्तु
अस्तु. उत्तमम्. अस्तु अत्र अहं किञ्चित् वदामि, भवन्तः सर्वे जानन्ति एव शुभम् अस्तु, श्रीरस्तु,
कल्याणमस्तु,
कल्याणमस्तु, तथास्तु. उत्तमम्. अनन्तरम् अविघ्नमस्तु तथा वयं वदामः, इत्युक्ते शुभमस्तु. तत्र शुभम् एकं पदम्, अस्तु अन्यत् पदं. तत्र लोट् लकार, लोट् लकार तस्य उपयोगः कदा भवति इत्युक्ते आज्ञार्थे वा प्रार्थनार्थे वा तथा भवति. वयं जानीमः एतानि वाक्यानि, परन्तु लघु लघु वाक्यं. तत्र शुभम् अस्तु इत्युक्ते शुभम् अस्तु. अनन्तरम् अत्र अन्यत् क्रियापदं किम् अस्ति? सूचयति, सूचयति पदम्
आम्रफलम्.
आम्रफलम् अस्ति
अस्ति, अदे अदे तदेव
आम्रफलम् अस्ति. उत्तमं महोदय.
चिन्ता मास्तु, चिन्ता मास्तु,
चिन्ता मास्तु, चिन्ता मास्तु भगिनी. तत्र चिन्ता मास्तु, मास्तु इत्यस्मिन् पदे मा अस्तु, मा
अस्तु,
मा इत्युक्ते अत्र व्यतिरेकार्थपदम्. अत्र नास्ति इत्यस्मिन् अपि ना योगः अस्ति, ना योगः अस्ति, नास्ति तथा एव भवति. अनन्तरं धन्यवादः महोदय. वंशीसुधावती भवती करोति वा, भवती करोति वा?
किञ्चित् खादः अस्ति भगिनी, मध्येन खादः जातः, किञ्चित् कष्टमस्ति. मास्तु इस् लैक् डोण्ट् वाण्ट्, नास्ति इस् नाट् देर्.
कः वदति मास्तु इति?
मास्तु डोण्ट् वाण्ट्.
कः वदति मास्तु? मास्तु नास्ति, तयोर्मध्ये भेदः अस्ति. कः वदति?
अहं वंशीसुधा भगिनि.
शोभा भगिनी भवती वदति वा, तयोर्मध्ये भेदः?
सन्देहः
वदतु महोदय.
अस्ति सन्ति पदे पदे मध्ये अर्थम् एव वा?
इत्युक्ते तयोर्मध्ये भेदः अस्ति. अस्माकं कक्षायां कः वदति अस्ति सन्ति, तयोर्मध्ये भेदः कः? शोभा भगिनी करोतु.
मास्तु लोट् लकारे अस्ति.
मास्तु, मास्तु लोट् लकारे.
मास्तु अस्ति प्रथमपुरुष अस्ति. मास्तु
प्रथमपुरुष, प्रथमपुरुष. अत्र शङ्करन् महोदयः एकं प्रश्नं पृष्टवान्, अत्र महोदय पुस्तकम् अस्ति, पुस्तकानि सन्ति,
बहुवचनं
बहुवचनं पुस्तकमस्ति, पुस्तकानि सन्ति.
नास्तु मने इट् इस् नाट् अवेलेबल्, वो वहां पर नहीं है या वो अवेलेबल, इट्स् नाट् देर्, नास्ति नास्ति, ओके नास्ति, ओके. मास्तु मीन्स् यु डोन्ट् वाण्ट् इट्.
अत्र पश्यसि भगिनि, पुस्तकं पुस्तकं नास्ति,
इट् इस् नाट् देर्,
पुस्तकं नास्ति, ग्रन्थः नास्ति, अत्र बालिका फलं नास्ति, पुष्पं नास्ति, तथा वदामः. परन्तु भोजनं मास्तु,
चिन्तनं मास्तु, फलं नास्तु, लैक् यु डोन्ट् वाण्ट् द फ्रूट्.
मास्तु इत्युक्ते ऐ डोण्ट् वाण्ट् मास्तु. अत्र अधुना एव वयम् अद्य एव वयम् एकं सम्भाषणं पठामः किञ्चित् कालानन्तरम्. अत्र एकं सम्भाषणमस्ति अभ्यासपुस्तके. शीघ्रं शीघ्रम् एतानि क्रियापदानि समापयित्वा सम्भाषणं पठामः. अनन्तरम् अत्र एकं क्रियापदमस्ति. सुचित्रा भगिनी भवती एव करोतु. अत्र भवन्तः अवगच्छन्ति वा नास्ति मास्तु तयोर्मध्ये भेदः?
आं भगिनि,
भवती वदतु भगिनि, स्वस्य वाक्यैः वदतु. शोभा भगिनी, वाक्यैः वा किमपि जानाति.
मास्तु अहं काफीं मास्तु,
काफी मास्तु,
निद्रासमये काफीं मास्तु,
मास्तु
न, मम गृहे अलेक्सा नास्ति.
करोतु.
अन्य वाक्यानि वाक्यानि भगिनि?
मास्तु
मास्तु, चिन्ता मास्तु,
चिन्ता मास्तु,
चिन्ता मास्तु, इदं मास्तु,
कालयापनं मास्तु.
हा, कालयापनं व्यर्थेन कालयापनं मास्तु. साधु अस्ति वा भगिनी वाक्यं व्यर्थेन?
कालयापनं मास्तु,
कालयापनं मास्तु, अधिक अधिक निद्रां मास्तु,
अधिक निद्रा मास्तु,
अधिक भोजनं मास्तु, अधिक मधुरं मास्तु,
मधुरं मास्तु. उत्तमम् उत्तमं भगिनि.
प्रश्नमस्ति, प्रश्नमस्ति, कालयापनं मास्तु किमर्थं? कालयापनं किमर्थं?
टैम् वेस्ट् मास्तु. कालयापनम् इत्युक्ते टैम् वेस्ट्,
टैम् वेस्ट्, टैम् वेस्ट्.
अत्र एकः श्लोकः अस्ति महोदय, काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्, मूर्खाणां निद्रया कलहेन वा. इत्युक्ते बुद्धिमान् पुरुषः काव्यशास्त्रविनोदेन कालं यापयति, परन्तु मूर्खाः मूर्खजनाः केवलं निद्रया अथवा कलहेन वा ते सर्वदा कालं यापयन्ति. एकः श्लोकः.
धन्यवादः.
तथा एव कालयापनं मास्तु. चिन्ता मास्तु
उत्तमं पठतु कालयापनं मास्तु संस्कृतं पठतु
उत्तमम् उत्तमम् अनन्तरम् अन्यं क्रियापदं किमस्ति अत्र सूचयति तद् अभवत् सूचयति करोतु महोदय आचार्यमहोदय भवान् करोति वा
हा सूचयति श्वः सूचयति सा सूचयति ते सूचयन्ति अहं सूचयामि वयं सूचयावः त्वं सूचयसि यूयं सूचयथ
उत्तमम् अहम् एकं पदं ददामि अत्र सूचना सूचना इति कर्मपदं योजयित्वा वदतु
शिक्षिका सूचनां सूचयति
उत्तमम् अनन्तरं महिला मार्गः
महिला मार्गं सूचयति अहम् उपायं सूचयामि
उत्तमम् अनन्तरं बालकः योजना
बालकः योजनां सूचयति
अत्र योजना इत्युक्ते किं जानाति वा
योजना प्लान्
उत्तमम् अनन्तरं वृद्धः समाधानं
वृद्धः समाधानं सूचयति
भवान् जानाति वा समाधानम् इत्युक्ते किं
समाधानम् इत्युक्ते सल्यूशन् आर् सोल्यूशन् आर् सोल्यूशन् समाधानं
उत्तमं साधारणतया वयं समाधानम् इत्युक्ते उत्तरम् इति चिन्तयामः परन्तु समाधानम् इत्युक्ते सोल्यूशन् सोल्यूशन् समाधानम् इत्युक्ते उत्तरं न तत्र समाधानं तस्य अर्थः सोल्यूशन् एव अत्र वेदान्तपरिभाषायामपि समाधानम् इति पदं तत्र अस्ति वेदान्ते अपि अनन्तरम् अत्र अन्यं पदं किमस्ति इच्छति धन्यवादः महोदय सुचित्रा भगिनी भवती करोति वा इच्छति
सः इच्छति एषा इच्छति सा इच्छति एषा इच्छति अहं फलम् इच्छामि ओके वयं पुस्तकम् इच्छामः भवती 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 पुस्तकम् इच्छति
भवती पुस्तकम्
इच्छति
अहं वदामि कानिचन पदानि ददामि करोतु बालिका फलं
बालिका फलम् इच्छति
महिला शाटिका
महिला शाटिकाम् इच्छति
उत्तमम् अनन्तरं लता पुष्पं
लता पुष्पम् इच्छति तरुणी वस्त्रम् इच्छति
अहं
धनम् इच्छामि
उत्तमम् अनन्तरं अध्यापकः किं वदामि अहम् अध्यापकः न यात्रिकः भोजनम्
यात्रिकः भोजनम् इच्छति
उत्तमं चोरः आभरणं
चोरः आभरणम् इच्छति
उत्तमम् अनन्तरं युवकः दूरवाणी
युवकः दूरवाणीम् इच्छति
उत्तमम् अनन्तरं बालकः मधुरं
बालकः मधुरम् इच्छति
अहम्
आभरणम् इच्छामि
उत्तमं भगिनि भवती एव करोतु स्वीकरोति अपि
स्वीकरोति भवती फलं स्वीकरोति वयं भाषां स्वीकरोमि
पुनः करोतु
वयं भाषां स्वीकरोमः
वयं पुस्तकानि वयं पुस्तकानि
वयं पुस्तकानि स्वीकरोमः स्वीकरोमः
स्वीकुर्मः
स्वीकुर्मः स्वीकुर्मः
उत्तमं पुनः करोतु
वयं धनं स्वीकरोमः स्वीकरोमः
पुनः स्वीकुर्मः
स्वीकुर्मः अहं काफी स्वीकरोमि
पुनः करोतु किञ्चित् समीकृत्य
अहं काफी स्वीकरोमि
अत्र काफीं
स्वीकरोमि
अहं काफीं स्वीकरोमि
भिक्षुकः भिक्षां स्वीकरोति
उत्तमं बालकः पुस्तकं
बालकः पुस्तकं स्वीकरोति
उत्तमं देवः वन्दनं
देवः वन्दनं स्वीकरोति
उत्तमं बालिका स्यूतः
बालिका स्यूतः स्वीकरोति
उत्तमम् अनन्तरं महिलाः स्यूताः करोतु
महिलाः स्यूतायां स्वीकरोमः
अत्र पश्यतु भगिनी महिलाः बहुवचनं स्यूतः इति कर्मपदं स्यूताः इति पदं दत्तमस्ति अतः महिलाः
स्यूतं स्वीकरोमः
अत्र पश्यतु भगिनि महिलाः स्वीकुर्वन्ति किं स्वीकुर्वन्ति स्यूतं स्वीकुर्वन्ति अथवा स्यूतान् स्वीकुर्वन्ति महिला अत्र शृणोतु एकवारं महिला स्वीकरोति महिलाः स्वीकुर्वन्ति महिलाः किं स्वीकुर्वन्ति महिलाः स्यूतान् स्वीकुर्वन्ति बहुवचने वदामश्चेत्
लैक् फार् महिला स्यूतं स्वीकरोति बट् महिलायाः स्यूतं वै इस् इट् नाट् स्वीकरोमि लैक् वयं स्वीकरोमः इस् लैक् नो दट् इस् हौ वी से फर् दि अदर् थिङ्ग्स् रैट्
अत्र पश्यतु भगिनि अहं स्वीकरोमि अहं पुस्तकं स्वीकरोमि अहम् इति पदं कर्तृपदम् उत्तमपुरुषे अस्ति उत्तमपुरुषकर्तृपदम् अतः अहं स्वीकरोमि अहम् अन्नं स्वीकरोमि अहं भोजनं स्वीकरोमि अहं पुस्तकं स्वीकरोमि धनं स्वीकरोमि इति वदामः परन्तु महिला स्वीकरोति बालकः स्वीकरोति बालिका स्वीकरोति इत्युक्ते महिला बालकः बालिका एतानि नामपदानि प्रथमपुरुषे सन्ति अतः क्रियापदमपि क कर्तृपदम् अनुसृत्य भवति कर्तरिप्रयोगे एतानि वाक्यानि सर्वाणि अपि कर्तरिप्रयोगे सन्ति आल् दीस् सेण्टेन्सस् आर् इन् आक्टिव् वाय्स् वेन् यू क्रियेट् अ सेण्टेन्स् इन् आक्टिव् वाय्स् नेचुरली द क्रियापदम् इस् बेस्ड् आन् द सब्जेक्ट् आफ् द सेण्टेन्स् इत्युक्ते अत्र बालकः स्वीकरोति बालकाः स्वीकुर्वन्ति अत्र पदं किं महिला स्वीकरोति महिलाः स्वीकुर्वन्ति यदि वयं कर्मपदं योजयामश्चेत् तत्र महिला स्यूतं स्वीकरोति महिलाः स्यूतान् स्वीकुर्वन्ति तथा भवति किञ्चित् क्लेशः परन्तु भवती अग्रे गत्वा वयम् एतानि सर्वाणि अपि पठामः पठिष्यामः चिन्ता मास्तु केवलम् अभ्यासार्थं वदामि अत्र स्वीकरोति इति पदस्य बहुवचनरूपं स्वीकुर्वन्ति एकवचने महिला स्वीकरोति बहुवचने महिलाः स्वीकुर्वन्ति केवलं बहुवचने लट्लकारे आल् दीस् सेण्टेन्सस् आर् इन् प्रेसेण्टेन्स् ओन्लि बट् वि आर् यूसिङ्ग् द प्लूरल् नम्बर् बहुवचने वाक्यरचनां
कृतवन्तः
अवगच्छति वा अनन्तरम् अन्तिमं क्रियापदम् अस्मिन् बुड्डे एव गृह्णाति गृह्णाति अपि भवती एव करोतु
भगिनि रामः हस्ते
हस्तं गृह्णाति अहं पदं ददामि भवती केवलं करोतु बालकः कन्दुकः
बालकः कन्दुकः गृह्णाति कन्दुकं गृह्णाति
बालकः इति बालकः इति कर्तृपदं कन्दुकः कर्मपदम् अतः बालकः कन्दुकं गृह्णाति
कन्दुकं
गृह्णाति जनरली इन् ए सेण्टेन्स् यूजुवली ए सेण्टेन्स् विल् हाव् ए सब्जेक्ट् आब्जेक्ट् अण्ड् ए वर्ब् कर्तृपदं कर्मपदम् अण्ड् क्रियापदम् बालकः कर्ता कर्तृपदं कन्दुकः कर्मपदम् अनन्तरं गृह्णाति क्रियापदं बालकः कन्दुकं गृह्णाति इति भवति अनन्तरं माता वदतु
क्षम्यतां भगिनि भगिनी गृह्णाति अथवा गृह्णाति किम् उत्तमं भगिनि गृह्णाति गृह्णाति
अत्र मम गुरुः उक्तवान् एकवारं गुरुः उक्तवान् तत्र
अहं न जानामि तदेव अहं पृच्छामि
अत्र यद्यपि वयं सर्वदा हकारे नकारः वा मकारः वा लिखामः परन्तु तत्र उच्चारणसमये भिन्नरूपेण उच्चारणं भिन्नरूपेण उच्चारणं कुर्मः इत्युक्ते प्रथमतया मकारं वा अथवा नकारं वा उच्चारयित्वा अनन्तरम् उच्चार्य अनन्तरं हकारं उच्चारणं कुर्मः यदि तत्रापि हकारं लिखित्वा अनन्तरं मकारं लिखामः ब्रह्म परन्तु उच्चारणे ब्रह्म इति वदामः परन्तु तत्र ब्रह्म एव अस्ति तथा एव अत्रापि गृह्णाति इति एव लिखितमस्ति परन्तु उच्चारणसमये गृह्णाति एकवारं मम गुरुः सः उक्तवान्
एकपदं वह्नि
अत्र तत्रापि भगिनि यदि यत्र कुत्रापि हकारं लिखित्वा अनन्तरं नकारः वा मकारः वा लिखामश्चेत् तत्रापि केवलं लेखनसमये वह्निः एव लिखामः, परन्तु उच्चारणसमये
वह्नि
तथा एव उच्चारणीयम्। एका तथा एका परम्परा अस्ति, केवलम् उच्चारणविशेषः, उच्चारणविशेषः एव।
बहुदिन सन्देहः अस्ति आसीत् भवती किञ्चित् पृच्छामि।
तथैव ब्रह्म इति न वदामः, ब्रह्म वदतु महोदय।
कृपया पुनर्वदतु भगिनि, उकारस्य परे उकारम् अथवा नकारम्?
अत्र लेखनसमये केवलं हकारं लिखित्वा मकारं वा अथवा नकारं वा लिखामः, परन्तु उच्चारणसमये प्रथमतया मकारम् उच्चारयित्वा हकारम् उच्चारयामः। दट् मीन्स् वेन् एवर् यु आर् रैटिङ्ग् यु विल् रैट् फस्ट् हकारम् अण्ड् देन् नकारम् अथवा मकारं, बट् वेन् यु प्रोनौन्स् इट् फस्ट् यु आर् सपोस् टु प्रोनौन्स् द मकारं, ब्रह्म मकारे हकारः।
The way the aksharas are lined in the alphabet? Yeah.
Bhagini, there are certain rules like that, Bhagini. Okay. Once no, my teacher just, he explained it to me, Bhagini, this is the way you should pronounce it. Bhagini, even though it was...
I'm sorry for asking this, Adhigapasingatana question. Is it according to Panini's sutras or hakarasya? It is
not according to Panini rule, but my teacher told me that it is a parampara, it is a pradha. That means it is a, that's what learned people, they do that. Vishayantram asti, agre gachhamaha. Grunhati. Bhagini karottu. Anantram, mata shishuhu.
Mata shishuhu. शिशुः गृह्णाति,
माता शिशुं गृह्णाति,
शिशुं गृह्णाति।
चोरः धनं,
चोरः धनं गृह्णाति,
अहं प्रसादः,
अहं प्रसादं गृह्णामः,
अहं प्रसादं
प्रथमं गृह्णामः।
अहम् एकवचने अस्ति, पुनः किञ्चित् समीकरोतु।
अहम् अन्नं गृह्णामि,
अहं प्रसादं गृह्णामि,
गृह्णामि, उत्तमम्, अहं प्रसादं गृह्णामि। बालकः स्यूतः,
बालकः स्यूत गृह्णाति,
उत्तमम्, बालकः स्यूतं गृह्णाति। पुरुषः आसन्दः,
पुरुषः आसन्दं गृह्णाति,
पुरुषः आसन्दं गृह्णाति। बालिका लेखनी,
बालिका लेखनी गृह्णाति,
पुनः किञ्चित् समीकरोतु।
बालिका, what was the word, Bhagini, I forgot.
लेखनी, लेखनी अथवा अङ्कनी,
लेखन लेखन्यं गृह्णाति, लेखन्यं,
केवलं लेखनी इति पदस्य, लेखनी इति पदस्य द्वितीयारूपं किमर्थं तथा?
बालक,
अत्र पश्यतु, बालिका गृह्णाति, बालिका गृह्णाति, किं गृह्णाति? बालिका लेखनीं गृह्णाति, इत्युक्ते तत्र केवलं कर्मपदं योजयित्वा वाक्यं रचयामः। बालिका लेखनीं गृह्णाति,
लेखनीं गृह्णाति बालिका लेखनीं गृह्णाति
अनन्तरं कः करोति बहुवचने गृह्णाति इति पदस्य रूपं किं भवति एकं वाक्यं रचयतु महोदय अत्र
ते शिक्षां गृह्णन्ति
उत्तमम् उत्तमम् आचार्य महोदय भवान् अपि करोति एकं वाक्यं बहुवचने
बहुवचने वयं धनं गृह्णामः
गृह्णीमः उत्तमपुरुष बहुवचनं बालकाः
बालकाः कन्दुकान् गृह्णन्ति कन्दुकान् कन्दुकं गृह्णन्ति
अत्र बालकाः कन्दुकं गृह्णन्ति अथवा बालकाः कन्दुकान्
कन्दुकान् गृह्णन्ति
उत्तमं वयं प्रसादं किं भवति
गृह्णीमः
उत्तमम् उत्तमं वयं
द्विवचनं किमस्ति भगिनि द्विवचने उत्तमपुरुष गृह्णीवः
शोभा भगिनी वदतु एकं वाक्यं रचयतु
वयं प्रसादं गृह्णीमः द्विवचन इस्
कर्तृपदं किम्
आवां प्रसादं गृह्णीवः
उत्तमम् आवां पुनः वदतु
आवां प्रसादं गृह्णीवः
उत्तमं गृह्णीवः उत्तमं तावदेव इदानीं पर्यन्तं वयं त्रिंशत् क्रियापदानि कृतवन्तः अग्रिमे पुटे षट् क्रियापदानि सन्ति परन्तु अग्रिमे सप्ताहे कुर्मः अधुना किञ्चित् एकं सम्भाषणं पश्यामः सर्वे अभ्यासपुस्तके एकं सम्भाषणमस्ति तं पश्यतु तत् सम्भाषणं पश्यतु अत्र त्रयोदशे पुटे अस्ति अत्र ग्राहकवितारकयोः मध्ये सम्भाषणम् आवश्यकं मास्तु पर्याप्तम् इति पदानि योजयित्वा एकं सम्भाषणम् अस्ति भगिनी आं त्रयोदशे पुटे अत्र ग्राहकवितारकयोः मध्ये सम्भाषणम् सतीश् महोदय भवान् अत्र ग्राहकः अनन्तरं भूमा भगिनी वितारकः
एतत् सम्भाषणं पठतु वितारकः भोः किम् आवश्यकं ग्राहकः काफी आवश्यकं वितारकः
पठतु महोदय अहं किम् उक्तवती इत्युक्ते केवलं भवान् वितारकः
मम करपत्रं लास्ट् अभ्यासपुस्तके दट् पेज् गाट् लास्ट् इन् ऐ डोण्ट् नो
अस्तु भगिनि अस्तु भगिनि महोदय भवान्
वितारकः
शोभा भगिनी ग्राहकः
आं भगिनि
करोतु महोदय वितारकः
वितारकः भो किम् आवश्यकं
ग्राहक शोभा भगिनी ग्राहकः
काफी आवश्यकं
वदतु महोदय सम्भाषणं
विच् पेज् किं पुटे
महोदय भवान् करोतु अत्र भवान् वितारकः अत्र महोदय, भवान् अवगतवान् वा? इत्युक्ते अत्र अस्मिन् सम्भाषणे अत्र सेवकः अस्ति, वितारकः अस्ति, ग्राहकः अस्ति. भवान् वितारकः, भगिनी ग्राहकः, तथा सम्भाषणं कुर्वन्तु. अवगतवान् महोदय? अत्र यु आर् बीङ्ग् द वितारक. शोभा भगिनी विल् आक्ट् एस् ग्राहकः. करोतु महोदय, पुनः एकवारं प्रारम्भं करोतु. भोः किम् आवश्यकम्? करोति वा महोदय?
अहं सतीश् पाठ्य, किम् अहं वदामि?
वदतु महोदय, वदतु.
वितारकः, भो किम् आवश्यकं? ग्राहकः, काफी आवश्यकं? वितारकः, जलम् आवश्यकं किम्? ग्राहकः, मास्तु, काफी आवश्यकम्? वितारकः, स्वीकरोतु. ग्राहकः, किञ्चित् शर्करा. वितारकः, स्वीकरोतु. पुनः आवश्यकं वा? ग्राहकः, पर्याप्तं. पुनः मास्तु.
उत्तमं, उत्तमं, तावदेव. अत्र किं किञ्चित् किञ्चित् पश्यामः. अत्र पङ्क्तिशः अत्र वितारकः इति पदमस्ति. वितारकः किं करोति वदन्तु?
वितारयति.
उत्तमं. यः आपणे वितरणं करोति,
वितारयति, वितरयति एव.
वितारयति अपि समीचीनं. यः वितारयति सः वितारकः, अथवा यः वितरणं करोति,
वितरणं करोति, लट्, ओके,
सः वितारकः. अनन्तरं ग्राहकः, ग्राहकः किं करोति?
ग्रहणं करोति.
उत्तमम्. अनन्तरं यदि सेवकः अस्ति चेत् सेवकः सेवां करोति. अत्र अस्मिन् सम्भाषणे किम् अस्ति इति पश्यामः. भोः, भवन्तः जानन्ति एव, भोः इत्युक्ते केवलं
सम्बोधनार्थं.
अनन्तरम् अत्र किम् इति पदमस्ति. किम् इति पदं भवन्तः जानन्ति एव, तस्य उपयोगः कुत्र भवति? अत्र किम् इति पदं प्रश्नवाचकपदं नपुंसकलिङ्गे. वयं जानीमः एव एतत् किं, तत् किम्, एतत् किम् इति प्रश्नं पृच्छामश्चेत् तत्र एतत् फलं, तत् किं, तत् पुस्तकम् इति वयं जानीमः. तत्र किम् इति पदं प्रश्नवाचकपदम् अपि च विशेषणत्वेन तस्य उपयोगं कुर्मः. परन्तु अत्र किम् इति पदम् अव्ययम्. किम् इत्यस्य अत्र अव्ययम्. अनन्तरं द्वितीयं वाक्यमस्ति, काफी आवश्यकं. काफी, सः किं पृच्छति वितारकः? किम् आवश्यकम् इति पृच्छति. काफी आवश्यकं. यदि काफी आवश्यकम् इति वाक्यम् अन्यरूपेण वदामश्चेत् कथं वदामः?
काफी पातुमिच्छामि.
काफी पातुम्
आवश्यकम् अस्ति.
आवश्यकम् अस्ति. उत्तमम्.
अवश्यं काफी ददातु.
मम काफी आवश्यकं.
मह्यं, मह्यं,
नाट् मम,
मह्यं काफी,
मह्यं काफी आवश्यकं.
काफी ददातु.
अनन्तरं यदि सः वितारकः काफी आवश्यकं किम् इत्यपि वक्तुं शक्नोति, अथवा काफी आवश्यकं वा इत्यपि प्रष्टुं शक्नोति. नो चेत् काफी आवश्यकी वा इति अपि प्रष्टुं शक्नोति. काफी आवश्यकी वा?
एकः प्रश्नः अस्ति महोदय, किं कथम् अव्ययं, कथम् अव्ययपदम् अस्ति? किं के कानि, किं के कानि इत्युक्ते विभक्ति विभक्ति भवति न?
तत्र किं के कानि तत्र प्रश्नवाचकरूपेण नपुंसकलिङ्गे किं के कानि इति भवति, परन्तु किम् इति अव्ययपदमपि अस्ति. अव्ययपदम् इत्युक्ते यदि एकं पदस्य लिङ्गं न जानीमश्चेत् केवलम् एतत् किम् इति वदामश्चेत् पर्याप्तं भवति. इफ् यु डोण्ट् नो द जेण्डर् आफ् द पर्टिक्युलर् वर्ड्, इफ् यु सिम्प्लि से एतत् किम्, that that is quite enough.
Yes.
Atra tada kim iti padam avyayam iti rupam svikaroti. Asmin sambhashya
dvitiya vakye kafi avashyakam asti. Kafi prathama vibhakti na.
Kafi prathama vibhakti.
Okay.
अनन्तरम्
अत्र नपुंसकलिङ्गं आवश्यकं या आवश्यकी
आवश्यकी इत्यपि समीचीनं महोदय. आवश्यकम् इति पदम् अत्र नपुंसकलिङ्गे अपि अस्ति.
सुबन्
अनन्तरं विशेषणरूपेण तस्य उपयोगं कुर्मः चेत् विशेषणं रूपेण उपयोगं भवति चेत् तत्र पुंलिङ्गे आवश्यकः, स्त्रीलिङ्गे आवश्यकी, नपुंसकलिङ्गे आवश्यकम् इति अपि भवति. अनन्तरं किं पृच्छति, भवती किं पातुमिच्छति इति सः वदति. एषः ग्राहकः वदति काफी आवश्यकं, जलं मास्तु इति वदति. वितारकः जलं ददाति ग्राहकाय. अनन्तरम् अनन्तरं किं भवति अत्र अत्र अहं चिन्तयामि अत्र काफी रुचिकरं नास्ति. अतः ग्राहकः किं पृच्छति, महोदय किञ्चित् शर्करां योजयतु इति सः वदति. अनन्तरं सः शर्करां योजयित्वा काफीं ददाति. इतोपि शर्करा आवश्यकं वा इति पृच्छति. इतोपि शर्करां योजयामश्चेत् किं भवति?
शर्करा
डायबिटीस् भवति.
भगिनि आवश्यकं का विभक्तिः
अत्र? किञ्चित् ध्वनिः अस्ति, कृपया किञ्चित्
आवश्यकं का विभक्तिः?
आवश्यकम् आवश्यकम् नपुंसकलिङ्गे अपि तस्य उपयोगः भवति भगिनि. आवश्यकम्
भगिनि, परन्तु काफी इति स्त्रीलिङ्ग एव अस्ति भगिनि, काफी आवश्यकी एव सम्यक् एव अस्ति भगिनि.
काफी आवश्यकी, परन्तु अत्र काफी आवश्यकं किम् अत्यपि समीचीनमेव. तदपि समीचीनमेव. अनन्तरम् अत्र अहं चिन्तयामि भवन्तः अवगतवन्तः एव आवश्यकम् इत्युक्ते किं, मास्तु इत्युक्ते किं, पर्याप्तं
पूर्वं पूर्वं
पूर्वम् अत्र भगवद्गीतायाम् एकः श्लोकः अस्ति प्रथमाध्याये एव अर्जुनविषादयोगे, अपर्याप्तं तदस्माकं बलं
भीष्माभिरक्षितम्,
पर्याप्तं
तदमेतेषां
अपर्याप्तं
तदस्माकं बलं भीष्माभिरक्षितं, पर्याप्तं त्रिदमेतेषां बलं भीमाभिरक्षितम्।
उत्तमम्। इत्युक्ते अत्र दुर्योधनः वदति यद्यपि अस्माकं भीष्माभिरक्षितं बलम् अस्ति तत् न पर्याप्तम्। पाण्डवानां सैन्यं सप्त अक्षौहिण्यः, कौरवाणां सैन्यम् एकादश अक्षौहिण्यः, परन्तु दुर्योधनः वदति अस्माकं भीष्माभिरक्षितं सैन्यं न पर्याप्तम्। पाण्डवानां भीमाभिरक्षितं सैन्यं तु पर्याप्तं। सः कथं तदा चिन्तयति? Why he is thinking like that? Even though he has more army,
he doesn't have Krishna with him.
He doesn't have the confidence.
पाण्डवानां सैन्यं केवलं सप्त अक्षौहिण्यः एव, परन्तु कौरवाणां सैन्यम् एकादश अक्षौहिण्यः। परन्तु सः वदति अस्माकं सैन्यं न पर्याप्तं, पाण्डवानां सैन्यं तु पर्याप्तम्। इत्युक्ते तस्मिन् आत्मविश्वासः
नास्ति। भगिनी, पर्याप्तं, केन् यू से सेवरल् वेस् इट्स् यूस् लैक् द मीनिङ्ग् पर्याप्तं हियर् इट्स् फिनिश्ड् आर् दट्स् इनफ् कानिचन वाक्यानि टु यूसिङ्ग् पर्याप्तं भगिनि?
अत्र भगिनी पर्याप्तम् इत्युक्ते एनफ् एव, अत्र ग्राहकः वदति इतोपि शर्करां योजयामि वा इति सः वदति, परन्तु ग्राहकः वदति इतोपि किञ्चित् शर्करा मास्तु भोः, इतोपि योजयामश्चेत् तत्र अधिका शर्करा भवति, अतीव मधुरा भवति काफी, अहं पातुं न शक्नोमि, अतः मास्तु, पर्याप्तम्।
प्रश्नमस्ति, एक प्रश्नं किं दुर्योधन भीमात् भीतः?
भीतः, भीमात् भीतः।
भीष्म अपि वृद्धः न, अतः सा वदति नेक्स्ट् श्लोके सर्व भीष्म एवाभिरक्षन्तु भवन्तः सर्वे एव हि इति।
उत्तमम्। तत्रापि तस्मिन् श्लोके अपि पर्याप्तम् इत्युक्ते इनफ् एव,
पर्याप्तम्।
अत्र किञ्चित् सर्वे किञ्चित् कालं म्यूट् कुर्वन्तु महोदय, अत्र ध्वनिः अस्ति, अहं किञ्चित् अधुना सम्यक् अस्ति, अधुना सम्यक् अस्ति। अत्र ग्राहकः इतोपि शर्करां न इच्छति, यदि इतोपि योजयामश्चेत् तत्र काफ्याः आस्वादनं कर्तुं न शक्नोति, तदर्थमेव सः वदति काफ्याम् इतोपि शर्करां मास्तु भोः, एतत् पर्याप्तम् इति वदति। तथा एव भवन्तः सर्वे अद्य गृहं गत्वा भवत्याः पुत्र्या सह वा अथवा मात्रा सह वा अथवा पुत्रेण सह वा भार्यया सह वा येन केनापि सह यथेष्टं कानिचन नूतनानि पदानि योजयित्वा एतदेव सम्भाषणं कुर्वन्तु। अत्र काफी, शर्करा इति, जलम् इति पदानि दत्तानि, परन्तु एतेषां पदानां स्थाने कानिचन नूतनानि पदानि योजयित्वा भवन्तः गृहं गत्वा वाक्यरचनां कुर्वन्तु, यथा जलम् आवश्यकं, चायम् आवश्यकम्, अथवा अन्नं, भोजनसमये अन्नम् आवश्यकं, तथा भोजनशालायां भवन्तः सर्वे गृहं गत्वा एतानि त्रीणि पदानि योजयित्वा अन्यानि पदानि अपि योजयित्वा वाक्यरचनां कुर्वन्तु, तथा किञ्चित् अभ्यासः भवति। अत्र अहं कानिचन पदानि ददामि, जलं, चायम्, अन्नं, फलं, मिष्टान्नम्, अनन्तरं चाकलेहः अथवा पयोहिमं, पयोहिमम् इत्युक्ते ऐस्क्रीम्
ऐस्क्रीम्
तथा कानिचन पदानि योजयित्वा भवन्तः सर्वे गृहं गत्वा अभ्यासं कुर्वन्तु तथा सम्यक् अभ्यासः भवति. अनन्तरम् एकम् अन्यं सम्भाषणमपि अस्ति तदपि शीघ्रं कुर्मः. अत्र गीतायाः पारायणम् इत्यस्मिन् विषये एकं सम्भाषणमस्ति शीघ्रं कुर्मः. शोभा भगिनी भवती आचार्यः अनन्तरं रघुपति आचार्यमहोदय भवान् अशोकः अत्र गीतासम्भाषणम्
अस्ति.
एकनिमिषम् इट्स् नाट् लोडिङ्ग् भगिनी फर् सम् रीज़न्.
अत्र आवश्यकं मास्तु पर्याप्तम् इति सम्भाषणमस्ति एकं करपत्रं.
आचार्य अहं वदामि.
वदतु महोदय.
नमो नमः. अद्य गीतापठनम् आवश्यकं किम्?
आम् आवश्यकं, निश्चयेन आवश्यकम्. आचार्य गीतापठनार्थं किं किम् आवश्यकम्?
गीतापुस्तकम् आवश्यकम्.
लिपिज्ञानम् आवश्यकं किम्?
आम् लिपिज्ञानम् आवश्यकम्.
कृष्णफलकम् आवश्यकं किम्?
कृष्णफलकं मास्तु.
मम उच्चारणदोषः अस्ति, भवतः साहाय्यम् आवश्यकम् आचार्य.
भयं मास्तु, अहं साहाय्यं करोमि.
श्लोकानां कण्ठस्थीकरणम् आवश्यकं किम्?
मास्तु, प्रतिदिनं पारायणं पर्याप्तं, तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति. भवतः गीतापुस्तकम् आवश्यकं किम्?
मम मास्तु, गोविन्दस्य आवश्यकं. मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति, आनयामि किम्?
मास्तु, मूलमात्रं पर्याप्तम्.
अस्तु आचार्य, धन्यवादः.
स्वागतम्.
उत्तमं, सुन्दरं सुन्दरं सम्भाषणं. धन्यवादः. अत्र उत्तमं भगिनी, उत्तमं. धन्यवादः महोदय. अनन्तरम् अत्र भवन्तः जानन्ति एव, केवलम् अत्र लिपिज्ञानम् इत्युक्ते सर्वाणि पदानि ज्ञातानि एव अस्माभिः, परन्तु केवलम् एकं वा अथवा द्वे वा पदानि नूतनानि सन्ति अत्र. लिपिज्ञानं, लिपिज्ञानम् इत्युक्ते कः
वदति?
अक्षराणि, आल्फबेट् नालेज्, आल्फबेट् नालेज्. अत्र कृष्णफलकं, कृष्णफलकम् इत्युक्ते ब्लाक्बोर्ड्. संस्कृतभाषायां कृष्णवर्णः इत्युक्ते
कृष्णवर्ण, कृष्ण ब्लाक्,
कृष्णवर्णः इत्युक्ते ब्लाक्. अनन्तरम् अत्र उच्चारणदोषः, उच्चारणदोषः इत्युक्ते प्रोनन्सियेशन् प्राब्लम्. अत्र अन्यं पदमस्ति कण्ठस्थीकरणं, मेमरैजेशन्. अत्र अहम् एकं वक्तुम् इच्छामि, भवन्तः सर्वे जानन्ति एव गृहस्थः, गृहस्थः इत्युक्ते यः गृहे तिष्ठति सः गृहस्थः. तथा एव यः श्लोकः अस्माकं कण्ठे तिष्ठति तदेव कण्ठस्थः. श्लोकः कण्ठस्थः करणीयः. बै हार्टिङ्ग् मीन्स् लैक् इत्युक्ते दट् श्लोक मस्ट् बि इन् युवर् थ्रोट्, इट् शुड् कम् औट् आफ् युवर् थ्रोट्. It must be there all the time in your throat. Kanthastaha. Sa prakriya, tatra prakriya asti. That means the task of kanthastam is nothing but kanthasti karanam. Atra sa prakriya eva kanthasti karanam. अनन्तरम् अत्र एकम् अन्यं पदमस्ति पारायणं. पारायणम् इत्युक्ते भवन्तः जानन्ति एव नित्यं श्लोकान् श्लोकानां पारायणं कुर्मः. चाण्टिङ्ग् अत्र परायणम् एकं पदं, पारायणम् अन्यं पदं. भवन्तः जानन्ति वा तयोर्मध्ये भेदः कः?
परायणम् इस् रन् अवे.
No, parayana is one who is well learnt. Parayana. Parayana?
Palayana
means run away. Parayana. Parayana is one who has learnt parayana. Parangata. Parangata. Okay, parayana.
Parayana is to make somebody do it? To make somebody...
Parayana.
अत्र अहम् एकं वदामि, अहम् एकं वाक्यं वदामि. वयं सर्वे भगवद्गीतायाः पारायणं कुर्मः प्रतिदिनं. तथा पारायणं कृत्वा, प्रतिदिनं पारायणं कृत्वा वयं पारायणं प्राप्नुमः. इत्युक्ते पारायणं कृत्वा पारायणं प्राप्तुं शक्नुमः. इत्युक्ते पारायणम् इत्युक्ते इत्र अत्र final destination of our life journey. That is called parayanam.
Oh, is it para plus ayanam?
Ayanam. Ayanam is the journey.
Para is belonging to God. Anything that's apara.
Atra pashyatu bhagini, para atra repha hasti, asmin pade repha hasti, ataha अतः मूर्धन्य नकारादेशः भवति. अतः परयोगः अयनं परायणं.
परयोगः अयनं
योगः इत्युक्ते प्लस् पर प्लस् अयनं परायणं. यः नित्यं भगवद्गीतायाः पारायणं करोति सः परायणं प्राप्नोति. रामायणम् इत्युक्ते रामस्य अयनम्. द जर्नी आफ् राम. तथा एव अत्र परायणम् इत्युक्ते फैनल् डेस्टिनेशन् आफ् अवर् लैफ् जर्नि. तदेव परायणम्. उत्तमान् श्लोकान् पारायणं कुर्मः चेत् परायणं प्राप्नोति इति वयं शक्नुमः.
उत्तमं भगिनि. मम मास्तु गोविन्दस्य आवश्यकं.
वदतु भगिनि.
सेण्टेन्स् न मम मास्तु गोविन्दस्य आवश्यकं.
गोविन्दस्य आवश्यकं मम मास्तु. ऐ डोण्ट् नीड् इट्. ऐ डोण्ट् वाण्ट् इट्. परन्तु गोविन्द वाण्ट्स् इट्. गोविन्द नीड्स् दट् बुक्. गोविन्दस्य आवश्यकं मम मास्तु. अनन्तरम् अत्र व्याख्यानसहितं पुस्तकम् इति अस्ति. व्याख्यानम् इत्युक्ते भवन्तः जानन्ति एव. व्याख्यानम् इत्युक्ते
कामेण्टरि.
भगवद्गीतायाः व्याख्यानम् इत्युक्ते कामेण्ट्रि आन् भगवद्गीता. अत्र सः वदति व्याख्यानसहितं पुस्तकस्य आवश्यकता एव नास्ति, केवलं मूलमात्रं ग्रन्थः अस्ति चेत् पर्याप्तम्. आचार्यः वदति कण्ठस्थीकरणम् आवश्यकं नास्ति, केवलं प्रतिदिनं श्लोकानां पारायणं करोतु, तथा एव सर्वान् श्लोकान् भवान् पठितुं शक्नोति. ते कालक्रमेण श्लोकाः कण्ठस्थाः भवन्ति. श्लोकानां कण्ठस्थीकरणस्य आवश्यकता एव नास्ति इति सः वदति. अतः भवतः गृहे व्याख्यानसहितं पुस्तकमस्ति चेदपि तस्य आवश्यकता नास्ति, केवलं मूलमात्रं ग्रन्थं स्वीकरोतु, पठतु प्रतिदिनम् इति आचार्यः वदति. अत्र भगवद्गीतायाः गीतापठनम् इति. अत्रापि केवलम् आवश्यकं मास्तु पर्याप्तम् इति पदानि एव सन्ति. अहं चिन्तयामि भवन्तः अवगतवन्तः इति अहं चिन्तयामि
भगिनि. मम एकः प्रश्नः सेम् प्रश्नः अस्ति. गोविन्दस्य सौण्ड्स् लैक् अ षष्टिविभक्ति. यदि अत्र रामपदः अस्ति, रामम् आवश्यकम् अस्ति वा? रामम् आवश्यकं, गोविन्दम् आवश्यकम्?
Why do we have Shashti Vibhakti in Govindasya and Mama also is Shashti Vibhakti, no?
अत्र पश्यतु भगिनी, गोविन्दस्य आवश्यकम् इत्युक्ते फर् गोविन्द इट् इस् नेसेसरि फर् गोविन्द. गोविन्दस्य आवश्यकम् अथवा यथा महोदयः उक्तवान् गोविन्दाय आवश्यकम्.
ओके गोविन्द ओके
अथवा गोविन्दस्य कृते आवश्यकम्.
ओके
मह्यं मास्तु कृते तदपि समीचीनमेव. मह्यं मास्तु मम मास्तु
परन्तु गोविन्दम् आवश्यकम् इति समीचीनं नास्ति भगिनी.
ओके आं
भगिनि, गोविन्दाय आवश्यकम्. इतोपि डु हाव् एनी क्वश्चन्?
यस् भगिनि, पर्याप्तम् अथवा अलम् एकमेव अर्थं वा?
अलम् आं महोदय, पर्याप्तम् अलमित्युक्ते अलमित्युक्ते मास्तु
अलं चिन्ता
अलं कोलाहलेन तृतीयविभक्ति उपयुज्य वदामः.
अलम् इति द्वि अर्थः भगिनी, द्वे इनफ् अण्ड् ईक्वल्. सो अलं पर्याप्तं देर् नाट् ईक्वल्
आल्मोस्ट् आल्मोस्ट्
प्रायश
आल्मोस्ट् ईक्वल्.
अण्ड् काफि काफि तत् पदात् संस्कृते एव काफि संस्कृतमेव.
संस्कृतम् इत्युक्ते इदानीन्तनकाले दे आक्चुवलि क्रियेटेड् दिस् सेण्टेन्स् दीस् वर्ड्स् महोदय.
ओके भगिनि ओके भगिनि.
अत्र भवन्तः इच्छन्ति चेत् केवलम् एकनिमेषपर्यन्तम् अहम् एकं वक्तुमिच्छामि, कृपया म्यूट् कुर्वन्तु. अत्र एकवारं शङ्करन् महोदयः पृष्टवान् सुन्दरकाण्डम् इति नाम किमर्थम् इति. सः उक्तवान् अहं किञ्चित् वक्तुमिच्छामि. अत्र भवन्तः सर्वे जानन्ति एव वाल्मीकिना विरचितं काव्यं रामायणं, परन्तु अत्र काण्डम् इत्युक्ते अध्यायः वा अथवा भागः अथवा प्रकरणम् इति अर्थः. अत्र सुन्दरकाण्डम् इति पदमस्ति, परन्तु सुन्दरकाण्डं सुन्दरं किमर्थम् इति चिन्तयामश्चेत् अत्र अस्मिन् भागे सीता रामलक्ष्मण आञ्जनेयाः दृश्यन्ते, परन्तु तेषु कः सुन्दरः? आफ् देम् हू इस् ब्यूटिफुल्? किमर्थं सुन्दरकाण्डम् इति नाम दत्तमस्ति इति चिन्तयामश्चेत् अत्र सुन्दरकाण्डे सीता दृश्यते, परन्तु सीता लङ्कायां दुःखिता अस्ति. रामलक्ष्मणौ सह, परन्तु द्वौ अपि दुःखितौ एव. अत्र आञ्जनेयः अस्ति, आञ्जनेयः सः वानरः. अत्र चिन्तयामश्चेत् कः सुन्दरः? कः सुन्दरः इत्युक्ते अस्मिन् भागे रामायणे, अस्मिन् सुन्दरकाण्डे आञ्जनेयः सुन्दरः. किमर्थम्? किमर्थमित्युक्ते सः अतीव उत्तमं कार्यं कृतवान्. तत् कार्यं किम् इत्युक्ते सः आञ्जनेयः सीतायाः अन्वेषणं कृतवान्. यदि सः सीतां न अन्वेषितवान् तदा प्रायशः सीतारामलक्ष्मणानां मरणम् अभविष्यत्. परन्तु रामायणे तथा न अभवत्. आञ्जनेयः सीतायाः अन्वेषणं कृत्वा सः स्वप्रयोजनं विना कृतवान्. आञ्जनेयः स्वप्रयोजनं विना अथवा स्वस्य लब्धिं विना समुद्रलङ्घनं कृतवान् लङ्का लङ्कां गतवान् लङ्कायां सीतां दृष्टवान् पुनः आगत्य सः विषयं रामं निवेदितवान् तथा रामस्य कृते सीतायाः वार्तां दत्तवान् तथा सः उत्तमं कार्यं कृतवान् सः केवलं स्वस्य लब्धिं विना एतत् सर्वं कृतवान् तथा रामस्य साहाय्यं कृतवान् अतः एव सः सुन्दरः सः वानरः एव परन्तु अत्र तस्य बाह्यसौन्दर्यस्य विषये न उक्तमस्ति तेन कृतं कार्यम् उत्तमम् अतः वाल्मीकिः तेन कृतं कार्यम् एव दृष्टवान् अतः सः सुन्दरकाण्डम् इति नाम दत्तवान् अहं चिन्तयामि आञ्जनेयः सुन्दरः तस्मिन् काण्डे सम्यक् वा महोदय
धन्यवादः
बहु बहु सम्यक् वदति
वदतु महोदय
आम् एकं श्लोकं पठामि कृपया
वदतु
सुन्दरे सुन्दरो रामः सुन्दरे सुन्दरी कथा सुन्दरी सुन्दरी सीता सुन्दरं वनं सुन्दरे सुन्दरं काव्यं सुन्दरे सुन्दरो कपिः सुन्दरे सुन्दरं मन्त्रं सुन्दरे न किं न सुन्दरम्
किं न सुन्दरम् उत्तमं तस्मिन् काण्डे किं न सुन्दरम् दट् मीन्स् एव्रिथिङ्ग् इस् सुन्दरम्
ब्यूटिफुल्
एव्रिथिङ्ग् इस् सुन्दरं धन्यवादः महोदय उत्तमम् अधुना स्थगयामः अग्रिमे सप्ताहे मिलामः धन्यवादः
धन्यवादः
धन्यवादः